अयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्री नरेन्द्रमोदी ओस्लो नगरे भारत नॉर्वे व्यापार अनुसन्धान शिखर सम्मेलने भागम् अगृह्णात्। शिखरसम्मेलने युवराजः हकोन, नॉर्वेदेशस्य प्रधानमन्त्री जोनास गहर स्टोरे इत्येतावपि भागम् अगृह्णताम्। शिखरसम्मेलनं सम्बोधयन् प्रधानमन्त्री मोदी टीईपीए इत्युक्ते टेपा व्यापार आर्थिक सहभागित्व समवाये प्रवेशम् इति विषये द्विपाक्षिक व्यापारस्य निवेशस्य च वृद्धेः प्रशंसाम् अकरोत्। टीईपीए इत्यस्य अन्तर्गतं 100 बिलियन यूएस डॉलर इत्यस्य निवेशलक्ष्यं साधयितुम् उभयपक्षयोः हितधारकाः प्रयतन्ते इति सः अधोरेखितवान्। परिणामतः भारते 10 लक्षाः उद्योगाः कल्पिताः भवेयुः इत्यपि मन्यते। सः भारतस्य प्रबलं ऊर्ध्वगामि विकासपथं, जनसांख्यिकीय लाभांशं, प्रतिभाशालिनः महत्वाकांक्षायुक्ताश्च युवकाः, दृढव्यवसाय अभ्यासाः, निवेशक अनुकूल विनियामक संरचना, प्रतिस्पर्धात्मक संघवादस्य भावञ्च अधोरेखितवान्। सः भारते नील अर्थव्यवस्था, नौकायान निर्माणम्, हरित परिवर्तनम्, पुनर्नवीकरणीय ऊर्जा, स्वास्थ्य तन्त्रज्ञानम्, महत्वपूर्णानि खनिजानि आदिभिः सह नवोद्योगादिषु प्रमुख क्षेत्रेषु नॉर्वेदेशस्य अधिक निवेशं प्रोत्साहितवान्। शिखरसम्मेलने भारतीयानां नॉर्वेदेशस्य च उद्योगविशेषाणां संस्थानां च मध्ये अनेकाः व्यापारसन्धयः हस्ताक्षरिताः। रक्षामन्त्री राजनाथ सिंहः ऑपरेशन सिन्दूर इतीदं भारतस्य सुदृढस्य आत्मविश्वासयुक्तस्य समर्थराष्ट्ररूपेण च परिवर्तनस्य प्रमाणम् इति वर्णितवान्। ह्यः हनोय नगरे भारतीय प्रवासिनः सम्बोधयन् श्रीसिंहवर्यः दृढरूपेण अवदत् यत् यद्यपि भारतं प्रथम उपयोग निषेध नीतिं प्रति प्रतिबद्धः अस्ति, तथापि सः परमाणुभीत्या वशीभूतः न भविष्यति, तथा च शत्रोः कस्यापि दुस्साहस्य दृढतया प्रतिकारं कर्तुं सज्जः अस्ति। सः प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य नेतृत्वे प्राप्तायाः अभूतपूर्वस्य प्रगत्याः कारणात् अन्ताराष्ट्रियस्तरे भारतस्य वर्धमानम् औन्नत्यम् उद्घाटितवान्। केन्द्रीय स्वास्थ्य परिवार कल्याण मन्त्री जगत प्रकाश नड्डा थाईलैंड, ईरान, नीदरलैंड, स्वीडन, मॉरिशस देशानां प्रतिनिधिभिः समकक्षैश्च सह उच्चस्तरीय द्विपाक्षिक मेलनं कृतवान्। जिनेवा नगरे एषा सभा अभवत्। सामाजिक प्रसार माध्यमे श्री नड्डा अवदत् यत् चर्चासु डिजिटल स्वास्थ्यम्, औषध निर्माणम्, सार्वजनिक स्वास्थ्य व्यवस्थाः, सार्वत्रिक स्वास्थ्य व्याप्तिञ्च प्रवर्धयितुं सहकार्यं सुदृढं कर्तुं केन्द्रितम् आसीदिति। न्यायाधीशेन यशवन्त वर्मणा सम्बद्धानाम् आरोपाणाम् अन्वेषणं कुर्वती न्यायाधीशान्वेषण समितिः ह्यः लोकसभायाः अध्यक्षम् ओम बिरलां प्रति संसदभवने स्वस्य प्रतिवेदनं समर्पितवती। स्वास्थ्य अधिकारिणः मन्यन्ते यत् कांगो लोकतांत्रिक गणराज्ये ईबोला प्रकोपः कतिपय सप्ताह पूर्वम् आरब्धः इति। अधुना मृतानां संख्या 18.1% यावत् सम्भूय इतोऽपि वर्धते। सर्वकारः अन्तर्जालमाध्यमेन प्रचलितम् एतद् अभियोगं निष्काशयत् यत् मन्दिरस्य स्वर्णसञ्चयस्य विनिमयरूपेण सर्वकारः देवालयानां कृते स्वर्णबन्धपत्राणि निर्गमिष्यति इति। प्रेस इन्फॉर्मेशन ब्यूरो इत्यस्य द फैक्ट चेक यूनिट इत्युक्ते पीआईबी इत्यनेन उक्तं यत् एतत् प्रतिपादनं मिथ्या अस्ति इति। प्रियाः श्रोतारः, अन्ते क्रीडावार्तायाम्। आईपीएल इति क्रिकेट क्रीडायां सनराइजर्स हैदराबाद दलम् आतिथेय चेन्नई सुपर किंग्स इति दलं गतरात्रौ 5 पराजित्य प्ले ऑफ इति स्थानं प्राप्तवत्। चेन्नई सुपर किंग्स इत्यनेन निर्धारितस्य 81% लक्ष्यस्य अनुसरणं कुर्वता सनराइजर्स हैदराबाद इत्यनेन 29 कन्दुक क्षेपण चक्रेष् एव लक्ष्यम् अतिक्रामितम् इति वार्ताः।